अमरकोशे अम्बुकणानां नामानां नाम्नामनन्तरं वक्तव्यं सीकरोम्बुकणाः श्रुताः पर्यन्तं समभूतो अनन्तरश्लोकपादः वर्षोपलस्तु करकाः मेघच्छह्नेः दुर्दिनम् इति। वर्षस्य उपलः वर्षोपलः इति। कृणोति हिनस्ति सस्यमिति करकाः सकृञ् हिंसायाम् इत्यस्माद्धातोः इदं पदं निष्पन्नम्। वर्षस्य उपलः वर्षोपलः, उपलः नाम शिला इत्यर्थः। वर्षसम्बन्धिशिला वर्षोपलः भवति। कदाचित् वृष्टिसमये शिलापातः अपि भवति। वडगळ्ळु इति आन्ध्रभाषायां वदन्ति, हेल् स्टोन्स् इति आङ्ग्लभाषायां वदन्ति। एवं वर्षसमये याः शिलाः पतन्ति ते एव वर्षोपलाः इति उच्यन्ते। एते वर्षोपलाः सस्यं नाशयन्ति। अतः कृणोति हिनस्ति नाम हिंसां करोति इत्यर्थः। हिनस्ति नाम कृणोति हिनस्ति सस्यम् इति करकाः इति उच्यन्ते। अनन्तरं कीर्यते वायुना भुवि इति करकाः, का करकाः। कृ विक्षेपे इत्यस्माद्धातोः इदं पदं निष्पन्नं। नाम अत्र अन्यः अर्थः, वायुना भुवि कीर्यते एते, अत एव करकाः इत्युच्यन्ते। इदानीं तत्र शिलापातः वर्ष उपलपातः किमर्थं भवति नाम वायुना, वायोः कारणादेव एते शिलाः भूमौ पतन्ति वर्षसमये, अतः करकाः इत्युच्यन्ते। वर्षोपला एव करकाः, अयं पुंलिङ्गे च वर्तते इति। वर्षोपलस्तु करका, करकोऽपि च दृश्यते इति तत्र अन्यत्रापि एवमेव उक्तम्। अतः वर्षोपलः करकाः पुंलिङ्गे अस्ति इति अत्र भावः सङ्ग्रहेण। अनन्तरश्लोकपादः मेघच्छह्नेः दुर्दिनम्। मेघच्छह्ने अह्नि दुर्दिनशब्दो वर्तते, नाम यस्मिन् दिवसे आकाशः मेघच्छह्नः भवति। मेघच्छह्नः नाम मेघे मेघैः आवृतः इत्यर्थः। तदेव दुर्दिनम् इति उच्यते, दुष्टं दिनं दुर्दिनम् इति। यस्मिन् दिवसे अह्नि आकाशः मेघावृतः भवति, मेघैः आवृतः भवति, तद्दिनं दुर्दिनम् इति अत्र उक्तम्। अनन्तरश्लोकः अन्तर्धाव्यवधापुंसि त्वन्तर्धिरपवारणम् अपिधानतिरोधानपिधानाच्छादनानि च। अस्मिन् श्लोके मेघच्छह्नम् इति, अत्र छह्नम् इति यः शब्दः वर्तते तस्य पर्यायपदानि नाम अन्तरम् इति यद्भवति तस्य पर्यायपदानि उच्यन्ते। अन्तर्धा, अन्तर्धीयते अनया अन्तर्धा, एवं व्यवधा, व्यवधीयते अनया व्यवधा। अत्र उभावपि शब्दौ डु धैङ् धारणपोषणयोः इत्यस्माद्धातोः उत्पन्नौ, उभावपि शब्दौ। अन्तर्धानम् अन्तर्धा अथवा व्यवधा व्यवधानम्, उभयोः अर्थसाम्यमेव वर्तते। अन्तरम् इति यदस्ति तदेव, पुंसि पुंलिङ्गे इति अत्र सूचितम्। पुंसि तु अन्तर्धिः अपवारणम्, अन्तर्धिः, अन्तः धीयते अनेन अन्तर्धिः, इकारान्त पुंलिङ्गशब्दः अन्तर्धिः इति हरिशब्दवत् इकारान्त पुंलिङ्गशब्दः, पूर्वसूचितरीत्या पुंसि। अनेन अन्तर्धिः नाम अनेन कश्चन पदार्थः न परिदृश्यते, अतः येन येन कारणेन यत्किम यः कोऽपि पदार्थः न परिदृश्यते न उपलक्ष्यते तदेव अन्तर्धिः इति उच्यते। नाम आच्छादनं, स एव अर्थः पुनः। अनन्तरं